इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः प्रोदीरितवान् यत् प्रधानमन्त्री नरेन्द्रमोदी जून मासस्य 18 दिनांके कृषक सम्मान निधि योजनायाः अन्तर्गतं 3,00,000,000 कृषकाणां वित्तकोषे भूयोपि 25,000,000,000 हस्तान्तरितं करिष्यति। नवदिल्ल्यां श्रीचौहानः अकथयत् यत् विगतेषु 10 वर्षेषु साम्प्रतं यावत् 11,00,000,000 कृषकाणां वित्तकोषेषु 3,00,000,000,000 सम्प्रेषितानि। असौ जून मासस्य 18 दिनांके प्रधानमन्त्रिणः कार्यक्रमेऽस्मिन् सम्मिलितुं सर्वान् मुख्यमन्त्रिणः पत्रं लिखितवान्। सः प्रकाशितवान् यत् ग्रामीण विकासः कृषि तथा कृषक कल्याण मन्त्रिरूपेण प्रभारं स्वीकृत्य मन्त्रालयस्य अधिकारिभिः सह चर्चां कृत्वा कृषकाणां कल्याण सम्बद्धेषु प्रत्येकस्मिन् महत्वपूर्णेषु विषयेषु कार्यं कुर्वन्नस्ति। श्रीचौहानः अवदत् यत् सः नूतन सर्वकारस्य शतदिवसीय योजनायाः अन्तर्गतं स्वमन्त्रालयस्य कार्ययोजनायाः अपि समीक्षां कृतवान्। जम्मूकश्मीरस्य सुरक्षास्थितेः अमरनाथयात्रायाः सज्जतायाः च समीक्षां कर्तुम् अद्य केन्द्रीय गृहमन्त्री अमितशाहस्य अध्यक्षतायाम् उच्चस्तरीय सभायाः आयोजनं भविष्यति। उपवेशने जम्मूकश्मीरस्य उपराज्यपालः मनोजसिन्हा, राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः, केन्द्रीय गृह सचिवः, सैन्य आरक्षि जम्मूकश्मीर प्रशासनस्य वरिष्ठाधिकारिणः च उपस्थिताः भविष्यन्ति। परह्यः नवदिल्ल्यां गृहमन्त्रालयस्य वरिष्ठाधिकारिभिः सह उपवेशने शाहमहोदयेन जम्मूकश्मीरस्य सुरक्षास्थितेः समीक्षा कृता आसीत्। ह्यः उत्तराखण्डे एकस्यां घटनायां 14 यात्रिणः मृताः। रुद्रप्रयागजनपदे बद्रीनाथ राष्ट्रिय राजमार्गे रैतौल्याः समीपे यात्रिवाहनं खात्यां पतितवत्। अनेन कारणेन 14 जनाः मृताः। 7 यात्रिणः ये गभीररूपेण आहताः तेषाम् उपचारः ऋषिकेशस्थिते एम्स चिकित्सालये प्रचलति। सूचनानुसारेण वाहने 26 श्रद्धालवः आरूढाः आसन्। सूचनां प्राप्य तत्क्षणं जनपद दण्डाधिकारी आरक्षि अधीक्षकेन एनडीआरएफ अग्निशामक सेवा मण्डल आपत्प्रबन्धन दलानि च समेत्य उद्धार कार्यक्रमः कृतवन्तः। सर्वाणि शवानि प्राप्तानि। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति जगदीप धनखड़, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीय गृहमन्त्री अमितशाह, उत्तराखण्डस्य राज्यपालः गुरमीत सिंहः, मुख्यमन्त्री पुष्कर सिंह धामी च घटनां प्रति दुःखं प्रकटितवन्तः। प्रधानमन्त्री नरेन्द्रमोदी प्रत्येकस्य मृतकस्य परिजनानां कृते प्रधानमन्त्री राष्ट्रिय उद्धारकोषात् 2,00,000 अपि च व्रणितानां कृते 50,000 रूप्यकाणाम् अनुग्रहराशेः घोषणां कृतवान्। छत्तीसगढ़स्य बस्तरे सुरक्षाबलैः सह संघर्षे 8 उग्रवादिनः मृताः। ह्यः छत्तीसगढ़स्य बस्तर संभागे सुरक्षाबलैः सह संघर्षे 8 उग्रवादिनः मृताः। तत्रैव 2 सुरक्षाकर्मिणौ अपि आहतौ इति सूचनास्ति। आईसीसी इत्यस्यां पुरुषाणां 20-20 विश्वचषक क्रिकेट प्रतिस्पर्धायां गतरात्रौ इंग्लैण्डदलेन नामीबिया दलं डकवर्थ लुईस स्टर्न डीएलएस पद्धत्याः 41 धावनांकैः पराजितम् इति वार्ताः।